इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दिव्यानन्द झाः। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अवदत् यत् विगते दशके भारतस्य रक्षोत्पादनं त्रिगुणितं भूत्वा सार्धैकलक्षकोटिरूप्यकात्मकम् अभवत्। अस्य शताब्दस्य चतुर्दश वर्षात् अधुनावधि चत्वारिंशत्तः अपि अधिकाः स्वदेशीयाः युद्धपोताः नौपोताश्च निर्मिताः। सः अवदत् यत् भारतम् अधुना अधिकतः रक्षोपकरणानाम् उत्पादनं स्वयमेव करोति।
पिछले 11 वर्षों में हमारा डिफेंस प्रोडक्शन 3 गुना से ज्यादा हो गया है। पिछले साल तक ये रिकॉर्ड 1.5 लाख करोड़ रुपए से अधिक पहुंच गया है। मैं एक और उदाहरण देश को बताना चाहता हूं। 2014 से अब तक भारतीय शिपयार्ड से नौसेना को 40 से ज्यादा स्वदेशी युद्धपोत और पनडुब्बियां मिले हैं।
प्रधानमन्त्री उक्तवान् यत् त्रयाणां सेनानाम् असाधारण समन्वयेन सिन्दूराभियानावधौ पाकिस्तानं समर्पणं कर्तुं बाध्यम् अभवत्। भारतीय सशस्त्र सेनाभिः सह दीपावल्याः वार्षिक परम्परां निर्वहन् प्रधानमन्त्री ह्यः गोवा कारावार तटयोः INS विक्रान्ते नौसेना कर्मकरैः सह दीपोत्सवम् आचरितवान्। अस्मिन् अवसरे सः प्रावोचत् यत् भारतस्य प्रथमः स्वदेशीयः विमानवाहकः INS विक्रान्तः भारतस्य सशस्त्र सेनायाः क्षमतां प्रतिबिम्बयति।
जिसका नाम ही दुश्मन के साहस का अंत कर दे वो है INS विक्रांत। मैं इस अवसर पर हमारी सेनाओं को खास तौर पर सैल्यूट करना चाहता हूँ। भारतीय नौसेना द्वारा पैदा किए जो भय पैदा किया गया है, भारतीय वायुसेना द्वारा दिखाए गए अद्भुत कौशल ने, भारतीय सेना की जांबाजी ने, तीनों सेनाओं के जबरदस्त समन्वय ने ऑपरेशन सिंदूर में पाकिस्तान को इतनी जल्दी घुटने टेकने पर मजबूर कर दिया था।
सह अवदत् यत् INS विक्रांत केवलम विमानवाहक एव नास्ति, अपितु एकविंशति तमायाः शताब्द्याः भारतस्य प्रतिभायाः दृढनिश्चयस्य वैश्विक प्रभावस्य च प्रमाणम् अस्ति। प्रधानमन्त्री अवदत् यत् INS विक्रान्तः आत्मनिर्भर भारतस्य मेड इन इण्डिया इत्येतयोः विशालः प्रतीकः अस्ति। सः सुरक्षाबलानां शौर्यस्य दृढसंकल्पस्य च प्रशंसां कृतवान्। सः उक्तवान् यत् अनेन कारणेन देशः माओवाद्यातंकवादं समाप्य महत्वपूर्णम् उपलब्धिं प्राप्तवान्। नौसैन्य कर्मकरान् सम्बोधयन् सः अवदत् यत् सः सौभाग्यशाली अस्ति यत् सः तैः सह एतं पवित्रोत्सवम् आमानयति। सः अवदत् यत् अद्य एकः अद्भुतः दिवसः अस्ति यत् मम पार्श्वे समुद्रम् अस्ति, अपरतः च भारतस्य वीरसैनिकानां बलम् अस्ति। राष्ट्रपतिः द्रौपदी मुर्मुः अद्य केरलस्य चतुर्दिवसीय यात्रायां तिरुवनन्तपुरं प्राप्नोति। श्वः राष्ट्रपतिः सबरीमाला मन्दिरस्य दर्शनार्थं गमिष्यति। गुरुवासरे सः पूर्वराष्ट्रपतेः KR नारायणस्य प्रतिमायाः अनावरणं तिरुवनन्तपुरस्य राजभवने करिष्यति। बिहार विधानसभा निर्वाचनस्य द्वितीय चरणाय नामांकन पंजीकरण प्रक्रिया ह्यः समाप्तिं गता। आहत्य 43,200 यत्र 20 जनपदानां 22,000 निर्वाचन क्षेत्रेषु अस्मिन् चरणे नवम्बर मासस्य 11 दिनांके मतदानं भविष्यति। गतवासरे विधानसभा निर्वाचनस्य प्रथम चरणाय नामांकन प्रत्याहरणस्य अन्तिमा तिथिः अपि आसीत्। 18 जनपदानां 21,000 निर्वाचन क्षेत्रेषु प्रथमचरणे नवम्बर मासस्य 6 दिनांके मतदानं भविष्यति। रेलमन्त्री अश्विनी वैष्णवः ह्यः नवदिल्ल्यां रेल परिषदः परिचालन कक्षस्य अवलोकनं कृतवान्। अस्मिन् अवसरे सः यात्रिणां गमनागमनस्य विषये अपि विस्तरेण ज्ञातवान्। इति वार्ताः।